आलाप।
कुत्र गच्छसि सखी?
उद्यानं गच्छामि।
किमर्थम्? अधुना वयं खेलामः। आगच्छ, अस्माभिः सह खेल।
नित्यमेव खेलामि, अद्य उद्यानं गमिष्यामि। आगन्तुम् इच्छसि?
तत्र किम् अस्ति?
एष वसन्त ऋतुः, तत्र नवानि पर्णानि सन्ति, पर्णे पर्णे पुष्पं भवति, सर्वमेव सुन्दरं तत्र।
तर्हि अहमपि आगमिष्यामि, पुष्पाणि मम प्रियाणि।
आगच्छ आगच्छ, तत्र सन्दीपः अस्ति, दक्षः अपि, आह्वय तौ।
अयि सन्दीप, अयि दक्ष, आगच्छतम्, उद्यानं गमिष्यामः।
उद्यानम्?
उद्यानम्?
आम् आम्, उद्यानम्।
आवाम् अपि गमिष्यावः, तत्र उद्याने पुष्पाणि, मधुमक्षिकाः, पतङ्गाः भवन्ति, सर्वं तत्र मनोहरम्, चलाम तावत्।
चलाम तावद् रम्यो ध्यानम्, ऋतुराजोऽस्ति वसन्त।